ननु परिणाम एव किल कर्म विनिश्चयतः स भवति नापरस्य परिणामेन एव भवेत् न भवति कर्तृशून्यमेह कर्म न चैकतया स्थितिरेह वस्तुनो भवतु कर्त्री तदेव ततः।